एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। पश्चिम दिशा जलवायोः न्यूनचापीय प्रणाल्याः कारणेन ह्य काष्ठमण्डप उपत्यका सहितेषु देशस्य प्राय भूभागेषु जलवायोः परिवर्तनेन वृष्टि हिमपातश्च सम्भूतौ वर्तेते। हिमपातस्य कारणेन शैत्यस्य वर्धनात् हिमालयीय भूभागानां जनजीवनं प्रभावितमस्तीति अस्माकं संवाददातारः सूचयन्ति। बाजुरा जनपदस्य बड़ीमालिका, बुढ़ीगंगा, त्रिवेणी, बुढ़ीनन्दा, हिमाली, खप्तड़, क्षेरेदह, गोमूल, स्वामी कार्तिक, जगन्नाथ पालिकानां हिमालयीय भूभागेषु सघन हिमपातस्य पश्चात् तत्रत्यं जनजीवनं प्रभावितं वर्तते। तथैव हुम्ला, मुगु, डोल्पा, जुम्ला, कालीकोट जनपदानां उच्च हिमालयीय भूभागेषु उच्च पर्वतीय क्षेत्रेषु च सघन हिमपात सम्भूतो वर्तते। हिमपातस्य कारणेन विमान सेवा अवरुद्धास्ति। सैव रियालु रियाली हिल्सा मार्गः अवरुद्धाश्च वर्तन्ते इति प्रेरणा ज्ञापितमस्ति। सघन हिमपातस्य कारणेन मुस्ताङ जनपदस्य कागवेनी कोरला मार्गखण्डश्च अवरुद्धोऽस्ति। तथैव रसुवा जनपदस्य लाङटाङ, गोसाईकुण्ड, नाकथली, याङसाङ, यार्सा भन्ज्याङ प्रभृतिषु उच्च हिमालयीय भूभागेषु ह्य प्रातःकालादेव हिमपातस्य कारणेन जनजीवनं प्रभावितं वर्तते। सैव गोरखा, दोलखा, म्याग्दी प्रभृतीनां जनपदानां उच्च पर्वतीयेषु हिमालयीयेषु च भूभागेषु सघन हिमपातस्य कारणेन मध्य पर्वतीय लोकमार्ग अवरुद्धो वर्तते। विभिन्नेषु स्थानेषु अवरुद्धा पर्यटका उद्धृताश्च सन्तीति प्रशासनेन ज्ञापितमस्ति। अतान्तरे हिमपातस्य पश्चात् शैत्यस्य वर्धनस्य कारणेन विशेषेण वृद्धबालिकासु प्रभावसर्जनस्य कारणेन विशेष सावधानताम् अवलम्बितुं चिकित्सकैः परामृष्टं वर्तते। राष्ट्रपतेः रामचन्द्र पौडेलस्य समक्षं निर्वाचनायोगस्य कार्यवाहक प्रमुख निर्वाचनायुक्तेन रामप्रसाद भण्डारिणा राष्ट्रियसभाया सदस्यानां निर्वाचनस्य प्रतिवेदनं प्रस्तुतमस्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते कार्यक्रमे राष्ट्रपति पौडेलस्य समक्षं ह्य कार्यवाहक प्रमुख निर्वाचनायुक्त भण्डारी अस्यैव माघमासस्य एकादशे दिवसे सम्पन्नस्य राष्ट्रियसभा सदस्यानां निर्वाचनस्य प्रतिवेदनं प्रस्तौत। तदवसरे आयोगस्य आयुक्तौ सगुन शमशेर जबरा, डा जानकी कुमारी तुलाधर, सचिवेन कृष्ण बहादुर रावत इत्यनेन सहिताः उच्चाधिकारिणश्च सहभागिनः आसन्। आगामिना फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य पूर्वकार्यस्य कृते मतदाता शिक्षायै सर्वेषु जनपदेषु निदर्शन मतपत्राणि प्रापितानि सन्तीति निर्वाचनायोगेन ज्ञापितं वर्तते। दशलक्षाणि, अष्टानवति सहस्राणि, शतद्वयं च निदर्शन मतपत्राणि मुद्रितानि। एतानि मतपत्राणि मतदाता शिक्षायै सर्वेषु सम्बद्ध जनपदेषु प्रेषितानि च सन्तीति च आयोगस्य प्रवक्ता नारायण प्रसाद भट्टराई असूचयत। एवमेव प्रत्यक्ष निर्वाचन प्रणाल्या अन्तर्गतं हुम्ला, कालीकोट, जुम्ला, मुगु, डोल्पा जनपदानां कृते मतपत्राणां मुद्रण कार्यं सम्पन्नमस्ति इति असौ असूचयत। अन्येषां जनपदानां कृते मतपत्राणां मुद्रण कार्यं जायमानमस्ति। अस्यैव माघमासस्य पञ्चविंशात् दिवसात् फाल्गुन मासस्य पञ्चमं दिवसं यावत् पञ्चषष्ट्युत्तरैकशते निर्वाचन क्षेत्रेषु मतपत्राणां प्रेषणस्य योजनास्तीति आयोगेन ज्ञापितं वर्तते। राष्ट्रिय जनमोर्चा दलेन ह्य नैर्वाचनिक घोषणापत्रं सार्वजनिकृत्य नेपालस्य क्षेत्रीय सन्तुलनेन सह विकासाय विकेन्द्रित सन्तुलित विकास नीतिः आवश्यकी भवति इति बलं दत्तं वर्तते। आगामिना फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमानस्य प्रतिनिधिसभायाः निर्वाचनस्य कृते राष्ट्रिय जनमोर्चा दलेन सार्वजनिक कृते घोषणापत्रे देशस्य सबल विकासाय भ्रष्टाचारः सर्वाधिक गभीर समस्याया रूपेण दृष्टोऽस्तीति निष्कर्षं प्रकाश्य उच्चस्तरीय शक्तिशालिनः आयोगं संघटय्य सर्वेषां स्तराणां भ्रष्टाचाराणाम् अनुसन्धानं दोषिणां दण्डनं च विधातव्ये इति बलं दत्तमस्ति। घोषणापत्रस्य सार्वजनिकरण कार्यक्रमे पूर्वीय द्युह दलस्य अध्यक्ष चित्रबहादुर केसी राष्ट्रम राष्ट्रियता जनता च सम्प्रति काठिन्यावस्थायां सन्तीत्यतः आगामिनः फाल्गुन मासस्य एकविंशे दिवसे सम्पत्स्यमाने निर्वाचने जनतया विगतकालिक त्रुटि न्यूनतातः पाठं शिक्षित्वा उत्तमं दलं प्रत्याशिनश्च निर्वाचनीयाः इति अगदत्। सुदूरपश्चिम प्रदेशस्य एकाशीत्युत्तर चतुःशतं मतदान स्थलानि अति संवेदनशील रूपेण वर्गीकृतानि वर्तन्ते। आगामिन फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणं प्रतिनिधि सभा सदस्यानां निर्वाचनं दृष्टिगतं विधाय सुदूरपश्चिम प्रदेश प्रहरिणा सुरक्षायाः दृष्ट्या षोडश निर्वाचन क्षेत्राणां मतदान स्थलानि सामान्यानि संवेदनशीलानि अति संवेदनशीलानां च रूपेण वर्गीकृतानि वर्तन्ते इति समाचाराः।